रत्नैकल्पितमासनम् हिमजलैः स्नानम् च दिव्याम्बरम् नानारत्नविभूषितम् मृगमदा मोदाङ्कितम् चन्दनम् जातीचम्पकबिल्वपत्ररचितम् पुष्पम् च धूपम् तथा दीपम् देवदयानिधे पशुपते हृत्कल्पितम् गृह्यता सौवर्णे नवरत्नखण्डरचिते पात्रे घृतम् पायसम् भक्ष्यम् पञ्चविधम् पयोदधियुतम् रम्भाफलम् पानकम् शाखानामयुतम् जलम् रुचिकरम् कर्पूरखण्डोज्ज्वलम् ताम्बूलम् मनसामया विरचितम् भक्त्या प्रभो स्वीकुरु छत्रम् चामरयोर्युगम् व्यजनकम् च आदर्शकम् निर्मलम् वीणाभेरिमृदङ्गकाहलकला गीतम् च नृत्यम् तथा साष्टाङ्गम् प्रणति स्तुतिर्बहुविधाः ह्येतत् समस्तम् मया सङ्कल्पेन समर्पितम् तव विभो पूजाम् गृहाण प्रभो आत्मा त्वम् गिरिजामति सहचराः प्राणशरीरम् गृहम् पूजादे विषयो बभोगरचना निद्रा समाधिस्थितिः सञ्चारपदयो प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तत्तदखिलम् शम्भो तवाराधनम् करचरणकृतम् वा कायजौ कर्मजौ वा श्रवणनयनजम् वा मानसम् वापराधम् विहितमविहितम् वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो।